Like, the Prabhupada speaks to a select audience at Todara College of Commerce on near Bombay, November 29th morning.
ज्ञानाञ्जनशलाकया चक्षुर्मिलिताञ्जना तस्मै श्रीकुरवे नमः. श्रीचैतन्यमनोभीष्टां स्थापितं येन भूतले स्वयं रूपकदामयं ददाति सपदान्तिकम् वन्देऽहं श्रीगुरुश्रीपदकमलं श्रीगुरुन् वैष्णवांश्च श्रीरूपं सा प्रजातं साधना रघुनाथान्वितं तं सजीवं साद्वैतं सावधूतं परिजनासहितां कृष्णचैतन्यदेवं श्रीराधाकृष्णपादान् साधना ललिता श्रीविशाखान्वितां हे कृष्णकरुणासिन्धो दीनबन्धो जगत्पते गोपीश गोपिका कांत राधा कांत सप्त कांचन गौरांगी राधे वृंदावनेश्वरी मृख भानुश्री देवी प्रणवामी हरि
All the rest of